एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। विजया दशमी पर्वणः अन्तर्गतम् अद्य द्वादश्यामपि मान्यजनेभ्यः टीकाग्रहणक्रमः सततम् चलति। विजयादशम्याः दिने टीकाग्रहणाय असमर्थानाम् दूरवर्तिभिः सम्बन्धिजनैः मान्यजनैश्च सह मेलनाय परैः ह्याश्च अप्राप्तावसराणाम् च जनानाम् अद्य टीकाग्रहणस्य प्रचलनम् वर्तते। क्रमोऽयम् कोजाग्रत पूर्णिमाम् यावत् चलति। अत्रान्तरे विजयादशमी पर्वणः प्रारवणस्य क्रमे निर्जनवत् काष्ठमण्डप उपत्यकायाम् टीकाग्रहणाय गमनागमनम् कुर्वताम् जनानाम् कारणेन सक्रियता वर्धिता वर्तते। क्रमोऽयम् अद्यतः क्रमेण वर्धते। महानगरीय यातायात व्यवस्थापन प्रहरीशाखाया अनुसारेण ह्यस्तन परह्यस्तन दिवसयोः तुलनायाम् अधिकानि यातायात साधनानि अचलन्। विजयादशमी पर्वणः कृते उपत्यकातो बहिर्भूतानाम् जनानामपि प्रवेशनक्रमः प्रारब्धोऽस्तीति महाशाखेयम् ज्ञापयति। विजयादशमी पर्वणः अवसरे मध्यपुर ठिमी स्थितायाम् बालकुमार्यम् समायोज्यमाना नेवारस भाषायाम् खा इति नाम्ना परिचिता कुभिण्डे जात्रा नामिका यात्रा ह्यः सम्पन्ना। घटस्थापनायाः दिने ठिमी वर्तिनी लायकु स्थिते तलेजु मन्दिरे यवाङ्कुरान् संस्थाप्य प्रारब्धायम् एतस्याम् यात्रायाम् पुष्पपत्रिका दिवसे सिद्धिकाली मन्दिरात् पुष्पपत्रिकाः आनीय तलेजु दशमी गृहे प्रवेशनस्य पश्चात् नवम्याः दिने महिषस्य अजस्य च बलिप्रदानात्मिका परम्परा वर्तते। प्रधानमन्त्री शेरबहादुर देउवा त्रिभुवन विश्वविद्यालयस्य पूर्व परीक्षा नियन्त्रकस्य पूर्वाञ्चल विश्वविद्यालय सेवायोगस्य पूर्वाध्यक्षस्य च प्राध्यापकस्य बद्रीनाथ श्रेष्ठस्य असामयिक निधनम् प्रति दुःखम् व्यनक्ति। प्रधानमन्त्रिणा देउवाविदेन यः ट्विटर सामाजिक सञ्जालस्य माध्यमेन प्राध्यापकस्य श्रेष्ठस्य निधनस्य समाचारेण आत्मना अत्यन्तम् मर्माहति अनुभूतेति कथयता दिवंगतात्मानः चिरशान्तिम् प्रकाम्य शोकसन्तप्त परिवारेषु हार्दिक समवेदना व्यक्ता वर्तते। कृषि पशुपक्षी विकास मन्त्री महेन्द्र राय यादवः कथयति स्थिर खाद्य सुरक्षायाः प्राप्तये दश वर्षेषु कृष्युत्पादनोत्पादकत्वयोः द्विगुणत्वेन वर्धनम् प्रति सर्वकारः केन्द्रितोऽस्ति। एकचत्वारिंशस्य विश्व खाद्य दिवसस्य अवसरे रेडियो सन्देशम् प्रददत् मन्त्री यादवः अगदत् मलबीज प्रवृत्तीनाम् स्रोत सामग्रीणाम् सर्वैः सहजतया प्रापणत्वेन अनुदानस्य कृषि व्यवसायस्य च सुरक्षा विधास्यते। मन्त्री यादवः अवोचत् कृषकैः उत्पादितानाम् खाद्य सामग्रीणाम् सहजतया क्रय विक्रयणाय सहकारी संस्थानाम् माध्यमेन सर्वेषु स्थानीय स्तरेषु खाद्य भाण्डागाराः निर्मीयन्ते। सप्तरी जनपदे ह्यो दुरापन्नायाम् यान दुर्घटनायाम् त्रयो जनाः अम्रियन्त। एतज्जनपदस्य खड़क नगरपालिकायाः चतुर्थवडा क्षेत्रवर्तिनी अमहास्थिते पूर्व पश्चिम राजमार्गे दुरापन्नायाम् दुर्घटनायाम् द्वौ शम्भुनाथ नगरपालिकायाः अष्टमवडा क्षेत्रवर्तिनी मिलनचोक स्थिते पूर्व पश्चिम राजमार्गे एव दुरापन्नायाम् दुर्घटनायाम् एकश्च जनाः मृताः इति प्रहरी ज्ञापयति। पश्चिमात् पूर्व दिशम् प्रति प्रस्थीयमानस्य मोटरसाइकल यानस्य विपरीत दिशा आगच्छतः अपर मोटरसाइकल यानस्य च परस्परं संघटनेन दुरापन्नायाम् दुर्घटनायाम् एकस्मिन् मोटरसाइकल याने आरूढा झापा जनपदस्य शिव सतासी नगरपालिकायाः षष्ठवडा क्षेत्रवासी द्वाविंशति वर्षीयो विवेक सापकोटा अपरस्मिन् मोटरसाइकल याने आरूढा झापा जनपदस्यैव भद्रपुर नगरपालिकायाः चतुर्थवडा क्षेत्रवासी एकविंशति वर्षीय दयाराम सिंह राजवंशी च मृतौ इति प्रहरी ज्ञापयति। दुर्घटनायाम् महोत्तरी जनपदस्य मटिहानी नगरपालिकायाः सप्तम वडा क्षेत्र निवासी 35 वर्षीय चन्दन कुमार शाह गभीरेण आहतो वर्तते। आहतो जन उपचाराय विराटनगरम् प्रेषितो स्थिति सप्तरी जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी नायब उपरीक्षकः माधव प्रसाद काफले अवदत्। एवमेव शम्भुनाथ नगरपालिकायाः अष्टम वडा क्षेत्रवर्तिनी मिलनचोक स्थाने बसयानेन मोटरसाइकल यानम् प्रहृतम् सद् मोटरसाइकल याने आरूढः सप्तरी जनपदस्य बलान बिहुल ग्रामपालिकायाः षष्ठवडा क्षेत्रस्य रौतड स्थानस्य 40 वर्षीया प्रमोद मण्डल मृतः इति प्रहरी ज्ञापयति। मकवानपुरे ह्य सायं टाटा सुमो यानस्य दुरापन्नायाम् दुर्घटनायाम् जनद्वयम् मृतमस्ति। मकवानपुरस्य इन्द्रसरोवर ग्रामपालिकायां काष्ठमण्डपात् वीरगंजस्थानं प्रति प्रस्थीयमानं सोमोयानं अनियन्त्रितं भूत्वा दुर्घटितं सद् जनद्वयं मृतं अष्टौ जना आताश्च वर्तन्ते। हेटौडा भीमफेदी कुलेखानी मार्गखण्डस्य अन्तर्गतं इन्द्रसरोवर ग्रामपालिकायाः द्वितीयवडा क्षेत्रे काष्ठमण्डपतः वीरगंजस्थानं प्रति प्रस्थितं शिखरपुर यातायात सेवायाः सुमोयानम् स्वयं अनियन्त्रितम् भूत्वा मार्गात् आसन्न शतद्वय मीटरमितम् अधः गर्ते निपतितम् सद् दुर्घटितमिति मकवानपुर जनपद प्रहरी कार्यालयो ज्ञापयति। सुमोयाने आरूढानाम् अष्टानाम् जनानाम् मध्ये षड् जनाः उपचाराय ललितपुरवर्तिनम् पाटन चिकित्सालयम् आनीताः सन्ति इति मकवानपुर जनपद प्रहरी कार्यालयस्य निमित्त प्रहरी प्रवक्ता प्रहरी निरीक्षक देवेन्द्र दासः अज्ञापयत्। सुमो चालकेन सह अन्य चत्वारो जनाः अतिरिक्तोपचाराय हेटौडा स्थानं प्रेषिताः एवं आताः मृताश्च जना इदानीमपि सत्यापिताः न सन्तीति प्रहरी ज्ञापयति। काभ्रे पलाञ्चोक जनपदस्य भूमलो ग्रामपालिकायाः अष्टमवडा क्षेत्रे दुरापन्नायं माइक्रोयानस्य दुर्घटनायं अष्टादश जना आताः वर्तन्ते। काभ्रे जनपद प्रहरी कार्यालयस्य अनुसारेण काभ्रे जनपदस्य कार्तिके देवराली स्थानात् काष्ठमण्डपं प्रति प्रस्थीयमानं माइक्रोबसयानं ह्य भूमलो ग्रामपालिकायाः अष्टमवडा क्षेत्रे दुर्घटितं वर्तते। माइक्रोबसयानम् आसन्न सार्ध शत मीटर मितम् अधः निपतितम् आसीत्। दुर्घटनायाम् आहतानाम् एकस्य पुरूषस्य एकस्य महिलायाः बालबालिकाद्वयस्य च अवस्था गभीरा स्थिति काभ्रे जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी नायब उपरीक्षक हरि खतिवडा ज्ञापयति। स्याङ्जा जनपदस्य गल्याङ स्थानेपि बुलेरो जीपयानस्य दुर्घटनायां पञ्च जनाः आहताः सन्ति। आहतेषु जनद्वयस्य अवस्था गभीरा स्थिति प्रहरिणा ज्ञापितं वर्तते। बुलेरो जीपयानं मार्गात् सार्ध शत मीटरमितम् अधः निपत्य दुर्घटितमिति स्याङ्जा जनपद प्रहरी कार्यालयस्य प्रहरी निरीक्षक अर्जुन विक ज्ञापितवान्। ह्याराष्ट्रम् अतिरिक्तेषु सप्तचत्वारिंशदधिक शते जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। ह्य कोरोना संक्रमणेन आराष्ट्रम् एको जन मृत्युस्ति। गतदिने आराष्ट्रम् अतिरिक्तः पञ्चचत्वारिंशदधिकाष्टशतं संक्रान्ताः जनाः मुक्ताः वर्तन्ते। सम्प्रति आराष्ट्रम् द्वादश सहस्राणि अष्टानवत्यधिक पञ्चशतं च कोरोना विषाणो सक्रिय संक्रान्ताः जनाः सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मनकामना केवल कार्यसेवा गत दिवसतः नियमित रूपेण सञ्चालिता वर्तते इति समाचारः।